Gananantva Ganapatigum Havamahe Kavim Kavinamupamashravastamam Jeshtarajam Brahmanam Brahmanaspata Anashrinvan Notibhissidhasadhanam Prano Devi Saraswati Vajibhit Vajinivati Dhinama Vitrayavatu Ganeshaya Namaha Saraswatyai Namaha Shri Gurubhyo Namaha Harihi Om Om Hiranyavarna Shuchaya Pavakaya Sujata Kashyapoya Svindraha Agniya Garbhanda Dhire Virupastana Apashagasyona Bhavantu Yata Gundraja Varuno Yati Madhye Satyandrute Avapashyanjananam Madushyucha Shuchayo Yapavakastana Apashagasyona Bhavantu Yasaan Deva Divi Krinvanti Bhakshaya Antarikshe Bahudha Bhavanti Ya Prithivim Payatondanti Shukrastana Apashagasyona Bhavantu Shivena Machakshusha Pashyadapa Shivaya Tanuvopasprusha Tattvacham Me Sarvagum Agnigum Rapsushado Huve Voma Ivarcho Balamo Jonidhatta Pavamanasu Varjanaha Pavitrena Vicharshanihi Yappotasa Punaduma Punanduma Devajanaha Punanduma Navodhiya Punantu Vishwa Ayavaha Jata Veda Pavitravat Pavitrena Punahima Shukrena Devadidhyat Agne Kratva Kratu Gumbrano Yatte Pavitra Marchisi Agne Vidatamantara Brahmadena Punimahe Ubhabhyam Deva Savitaha Pavitrena Savena Cha Idam Brahma Punimahe Vaishwa Devi Punati Devyagat Yasya Bhavit Tanuvo Vita Prishtaha Taya Madantasa Dhamadyeshu Vayagasyama Patayora Yinam Vaishwanaro Rashmi Bhirma Punatu Vada Pranene Shiromayo Bhuh Dhyava Prithivi Payasapayo Bihi Ritapari Yagniye Ma Punitam Bruhadvissavitastru Bihi Varshishtair Deva Manna Bihi Agne Dakshai Punahima Yena Deva Apunata Yena Po Divyankashaha Tena Divyena Brahmana Idam Brahma Punimahe Yappavamani Radhyete Rushibhissam Vrutagumratam Sarvagumsaputamashnati Svaditam Matarishvana Pavamaniryo Adhyeti Rushibhissam Vrutagumratam Tasmai Saraswati Duhe Kshiragum Sarpirmadhudakam Pavamani Swastyayanihi Sudugahi Payaswatihi Rishibhissamhrutorasaha Brahmaneshvamhrutagum hitam Pavamanirdishantunaha Imam lokamato amum Kaman samardhayantunaha Devir devai samabhrutah पावमाने स्वत्ययने सुदुगा घृतच्युतः ऋषिभिः संवृतो रसः ब्राह्मणेष्वमृतगुम्भितम् येन देवा पवित्रेण आत्मानम् पुनते सदा तेन सहस्रधारेण पावमान्यः पुनन्तु मा प्राजापत्यम् पवित्रम् शतोद्यामगुम् हिरण्मयम् तेन ब्रह्मविदो वयम् भूतम् ब्रह्म पुनीमहे इन्द्रः सुनीते सहमापुनातु सोमस्वस्त्या वरुणः समीच्या यमो राजा प्रवृणाभिः पुनातु मा जातवेदा मोर्जयन्त्या पुनातु भूर्भुवः सुवः तच्छय्योरावृणीमहे गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः भूमिर्भूम्नाद्यौर्वरिणान्तरिक्षम् महित्वा उपस्थेते देव्यदितेऽग्निमन्नादमन्नाध्यायादे आयङ्गौ प्रश्निरक्रमेदशनन्मातरम् पुनः पितरम् च प्रयन्सुवः त्रिगुंशद्धामविराजति वाक्पतङ्गाय शिश्रिये प्रत्यस्य वहद्युभिः अस्य प्राणादपानत्यन्तश्चरति रोचना यक्यन्महिषस्सुवः यत्त्वा क्रुद्धपरोवपमन्युना यदवर्त्या सुकल्पमग्ने तत्तव पुनस्तोद्दीपयामसि यत्ते मन्युपरोक्तस्य पृथिवीमनुदध्वसे आदित्या विश्वे तद्देवापशवश्च समापरन् मनोज्योतिर्जुषतामाज्यम् विच्छिन्नम् यज्ञगुंसमिमम् ददातु बृहस्पतिस्तनुतामिमन्नो विश्वे देवा इह मानयन्ताम् मेधिनी देवी वसुन्धरा स्याद्वसुधा देवी वासवे ब्रह्मवर्चसपितृणागुश्रोत्रम् चक्षुर्मनः देवी हिरण्यगर्भिणी देवी प्रसूवरे सदने सत्यायने सीद समुद्रवती सावित्री हनो देवी मह्यङ्गी महीधरणी महोद्यतिष्ठा शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणी इन्द्रपत्नी व्यापिनी सुरसरिधिहा वायुमते जलशयने श्रियन्धाराजा सत्यन्धोपरिमेदिने शोपरिघत्तम् परिगाय विष्णुपत्नी महीम् देवी माधवे माधवप्रिया लक्ष्मी प्रियसखीम् देवीम् नमाम्यच्युतवल्लभाम् धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि तन्नोधरा प्रचोदयात् महीम् देवीम् विष्णुपत्नीमजूर्याम् प्रतीचे मेनागुम् हविषाय जामः त्रेधा विष्णुरुरुगायो विचक्रमे महीम् दिवम् पृथिवीमन्तरिक्षम् तच्छ्रोणैरिश्रव इच्छमाना पुण्यग्श्लोकं यजमानाय कृण्वते स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहीशाः गो ब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति